Sur Terra. Ram Ram Ram. Sur Terra. येनाक्षर समाम नायमधिगम्य महेश्वरात् कृतं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरोः मम पाहि गुरो ओं नमः पाणिनिकात्यायन पतञ्जलिभ्यः शब्दविद्या संप्रदाय प्रवर्तकेभ्यः नमो मुनिभ्यः नमो महद्भ्यः नमो गुरुभ्यः अद्य पाठस्य आरम्भात् प्राक् वयं किञ्चिदिव पारायणं कुर्मः सर्वे कृपया लघुसिद्धान्तकौमुदीपुस्तकम् उद्घाटयन्तु सर्वे कृपया लघुसिद्धान्तकौमुदीपुस्तकम् उद्घाटयन्तु पारायणं कुर्मः इदानीं सर्वैः पञ्चनिमेषपर्यन्तं पारायणं करणीयं नववादने लागिन् कृत्वा यदि मम आगमने किञ्चित् विलम्बः भवति चेत् सर्वैः पारायणं करणीयं किं करणीयम् इति अद्य अहं सूचयामि तथैव भवद्भिः पञ्चनिमेषं करणीयम् मङ्गलाचरणं कृत्वा नत्वा सरस्वतीं देवीमिति मङ्गलाचरणं कृत्वा अथ अत्सन्धिः इको यणचि इकस्थाने यण् स्यात् अचि संहितायां विषये सुधि उपास्य इति स्थिते तस्मिन्निति निर्दिष्टे पूर्वस्य सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यं स्थाने अन्तरतमः प्रसङ्गे सति सदृशतम आदेश स्यात् शुद्ध्युपास्य इति जाते अनचि च अचः परस्य यरो द्वे वा स्तः न तु अचि इति धकारस्य द्वित्वेन सु ध ध य उपास्य इति जाते झलां झषि स्पष्टम् इति पूर्वधकारस्य दकारः संयोगान्तस्य लोपः संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् अलोन्त्यस्य षष्टीनिर्दिष्टोऽन्त्यस्य अल आदेश स्यात् इति यलोपे प्राप्ते यणः प्रतिषेधो वाच्यः शुद्ध्युपास्यः मध्वर्हि धात्रंशः लाकृतिः ఖ్యమ్ స్యాత్ హరయే విష్ణవే నాయకః పావకః వాంతో యి ప్రత్యయే యకారాదౌ ప్రత్యయే పరే ఓదౌతోః అవ్ ఆవ్ ఏతౌ స్తః గవ్యం నావ్యం అధ్వపరిమాణే చ గవ్యూతిః. ఏవం నిమేషద్వయం వా నిమేషత్రయమేవ అభవత్ ఇదానీ పారాయణం కర్తుం. ఏవం అస్మాభిః ఏకవారం సంన్యాప్రకరణమపి కరణీయం. సంన్యాప్రకరణం కించిత్ దశ నిమేషం స్వీకరోతి, తత్ పూర్వమేవ గృహే కృత్వా ఇదానీం అత్సందేహే పారాయణం కరణీయం. తద్ కుత్ర అస్తి ఏతత్ సూత్రాణి, లఘు సిద్ధాంత కౌముదీ పుస్తకం అస్తి కిల మి తత్ర అస్తి. ఇదానీం అద్యతన పాఠ పారాయణ కిం భవతి అస్మాభిః పారాయణస్య లాభః యతో హి సమయస్య సదుపయోగః. అన్యః ఏకః అంశః అస్తి, పారాయణేన సూత్రార్థః ఝటితి సూత్రార్థః మనసి భవతి. అనంతరం కక్షాయాం తత్ర అధ్యాపకేన ఏ అంశాః ఉక్తాః తదపి మననం భవతి. తత్ స్లైడ్ అపి భవతి చేత్ వరం, పరంతు మూలస్య పారాయణమేవ కరణీయం, నతు స్లైడ్ పారాయణం కరణీయం. కేవలం మూలస్య ఏక పుస్తకమేవ స్వీకృత్య కేవలం మూలస్య పారాయణం కరణీయం. యథా మూల యథా అస్తి తథైవ కరణీయం. అస్తు అదేం గుణః ఇతి అస్తి ఇదానీ అగ్రిమ సూత్రం. అదేం గుణః పూర్వస్యాం కక్షాయాం అస్మాభిః యంగ్ సంధి అయవాయ వాదేశ సంధి యాంతావాంతాదేశ సంధి అస్మాభిః అధీతం. ఇదానీం గుణసంధి విధాయకం సూత్రం విధీయతే. అదేం గుణః ఇతి ఏకం సూత్రం విద్యతే. అత్ర పదచ్ఛేదః ఏమస్తి, అత్ ఏంగ్ గుణః పదత్రయం విద్యతే. అత్ర ప్రథమావిభక్తికవచనం అత్ ఇతి పదం, ఏంగితి పదం ప్రథమావిభక్తికవచనం, గుణః ఇతి పదం ప్రథమావిభక్తికవచనం. ఇదానీం ఏతత్ యదా సర్వాణి పదాని ప్రథమావిభక్తౌ భవంతి తదా నిశ్చయేన వక్తుం శక్యతే సన్యాసూత్రం ఏతత్ ఇతి. అనేన కా సంజ్ఞా క్రియతే, గుణ ఇతి సంజ్ఞా క్రియతే అనేన సూత్రేణ. విధి సూత్రే యది కశ్చిత్ పద కంచిత్ పదం ప్రథమవిభక్తౌ భవతి తదా సహ విధీయమానః భవతి. సంజ్ఞాసూత్రే యది సంజ్ఞాసూత్రే ప్రాయః సర్వాణి పదాని ప్రథమవిభక్తౌ ఏవ భవతి. అత్ర అదేం గుణః ఇత్యత్ర ప్రథమావిభక్తికవచనం. సూత్రస్య అర్థః కః, అద్ ఏం చ గుణసంజ్ఞః స్యాత్ ఇతి సూత్ర క్షమ్యతాం ఇతి సూత్రార్థః. ఇదానీం అత్ నామ కిం ఏవో ఏం ఇతి అస్తి. అత్ ఏంగ్ ఏంగ్ ఇతి మాహేశ్వర సూత్రాత్ అస్మాభిః అధీతం. ఏంగ్ ఇతి ప్రత్యాహారః. ఏంగ్ ఇత్యత్ర కేకే వర్ణాః సంగృహీతాని భవంతి, కృపయా టైప్ క్రియతాం. ఏంగ్ ఇత్యనేన ఏంగ్ ప్రత్యాహారే ఆ ఇవున్ రిల్రిక్ ఏవోంగ్ ఆ ఏవో అస్తు అస్తు ఏవో ఇది ఏతే ఏతౌ వర్ణో ద్వౌ సంగృహీతౌ భవతః ఏవో ఏవం అద్ adu ityasya adengunaha ityasya atu iti bhavati yeng iti pratyaharaha asti yeta antargatau ye au iti varnau idanim atityasya atnamakaha atityasya kaha artaha tatra takaraha asti kila kim karaniyam iti chet agrima sutram ha Hrasva a only. Okay. Katham vid agatam tatu ityukte taparas tatkalasya iti agrimam sutram vidyate. Taparas tatkalasya iti yetadapi sanyas sutrameva. Idanim taparas tatkalasya taparaha tatkalasya iti padadvayam vidyate. Taparaha ityukte prathama vyaktyaika vachanam. Tatkalasya ityatra Shashti vivatti ekavachanam Taha paraha yasmat Idanim sutra vrtihi kim asti Taha paraha yasmat Sacha tat paraha Uccharyamanaha samakala samakalasyaiva sanyasyat Edat kinchit savadhanataya sutrartaha Antimeva Grahanam Bhavati Idanim Ekaika Amshahasti Tat Kinchit Nidhanataya Grihitva Antime Punaha Sutrartham Pratyagatya Oho Evam Vaiti Nirnayam Kurmaha Idanim Kim Bhavati Taparaha Tatkala Sanyakaha Iti Bhapratham Evam Agachati Taparaha Tatkala Sanyakaha Syat Anena Sutrena Kevalam sutrastha padanam sutrartha nasambhavati ataha yesha yetat sutram kutra vidyate taparastatkalasya iti prathamadhyayasya prathamapade eva vidyate kripaya tat ashtadhyayam svikurvantu idanim kim bhavati anudit savarnasya cha pratyaha iti asti 1168 asti Anudit Savarnasya cha pratyaha iti sutram 1169 asti tarihi etat sutram 1170 Astu, tatra atrasam sankhya maya, tatra maya doshakritaha, tatka samikritva yada pleshayami tatra upload karomi slide, tat tasmin madhya parishkaram karomi. Idanim asmakam kim ityukte, anudit savarnasya cha pratyaha iti sutram, tadanantaram eva taparas tatkalasya iti asti. Anudit savarnasya cha pratyaha asmabhi adhitam. Atra anpratyaha savarnasya iti padadvayam svikritya atra asmabhi sthapaniyam bhavati tarihi kim agacchati svamrupam shabdasya ashabda sanya iti anudit savarna anudit sutra purum sutram vidyate tat tasmat svam iti padam atra svikartavyam bhavati Evam swam iti padam swamrupa sutrat swam iti padam anudit sutrat an savarnasya iti padam evam svikartavyam bhavati anuvritti svikartavyam bhavati evam taparaha tarhi taparaha tatkalasya iti agatam Taparaha tatkalakaha bhavanti. Taparaha nama kim tas atra samasaha kaha ityukte samasa dvayam vidyate tatra. Kripaya samyak avajanantu yesaha eva sukshmaha vishayaha. Taparaha iti padasya samasa dvayam vidyate. Prathamam tatparaha taparaha. Panchami tatpurusha samasaha. एकारित्या कर्तुं शक्यते तः परः यस्मात् असौ तपरः इत्यपि समासः कर्तुं शक्यते इदानीं तात्परः तपरः इत्युक्ते तात्परः नाम तात्परः तपरः इत्युक्ते किं भवति पञ्चमी तत्पुरुषः भवति तः परः यस्मात् असौ इत्युक्ते तः परः यस्मात् यस्मात् वर्णात् तः परः अस्ति असौ तपरः इति आगच्छति अर्थः तस्य इत्युक्ते अत्र सूत्रार्थे किम् अस्ति तः परः यस्मात् सः च तात्परः उच्चार्यमाणस्य उच्चार्यमाणः समकालस्यैव संज्ञा स्यात् तस्य नाम तपरस्तत्कालस्य तपरत्वेन उच्चार्यमाणस्य काल इव कालः यस्य सः तत्कालस्य तत्कालः तस्य तत्कालस्य इति इदानीं तत्कालस्य इति कथम् आगच्छति इत्युक्ते तपरत्वेन उच्चार्यमाणः कालः इव कालः यस्य सः गजस्य इव आननं यस्य सः गजाननः इति भवति किल एवं तपरकरः तपरः तपरत्वेन उच्चार्यमाणः कालः सः कालः इव कालः यस्य तत् कालः इदानीम् एतेन किमपि स्पष्टं न भवति अयम् इदं सूत्रं पुनः वयं किं कुर्मः अदेङ्गुणः इति सूत्रमेव पश्यामः अत्र अदेङ्गुणः इति एतस्मिन् सूत्रे अ इति वर्णः तपरः अस्ति इत्युक्ते अ इति वर्णात् परं किम् अस्ति त् इति वर्णः अस्ति अतः अ इति वर्णः तपरः इदानीं इत् उपदेशे तद् न स्वीकर्तुं शक्यते इत्तिति वर्णः इत् उत् इत्यादि वर्ण इत्यादि सन्ति सः अपि इकारः उकारः तपरः अस्ति इदानीम् अदेङ्गुणः इत्यत्र उच्चारमाणसमकालं किं तद् वक्ष्यामि वदामि अदेङ्गुणः इति एतस्मिन् सूत्रे अकारः अकारः अवर्णः तपरः अस्ति इत्युक्ते अकारात् वर्णस्य परः कः वर्णः अस्ति इत्युक्ते तवर्णः त त् अस्ति इदानीं येङ् इति अपि तर्हि पञ्चमी तत्पुरुषसमासः यदा स्वीक्रियते पञ्चमी सत्पुरुषः किं वदति तात्परः तपरः इति वदति इदानीं तात्परः तपरः नाम अदेङ्गुणः इत्यत्र अकारः इदानीं येङ् इति अपि तपरः अस्ति येङ् इति पदम् अदेङ्गुणः इत्यत्र येङ् इति तपरः अस्ति अयं प्रत्याहारः तः इत्यस्मात् परः अस्ति सि दिस् इस् अन् इण्टेलिजेण्ट् समास इण्टेलिजेण्ट् वे इन् विच् दि समास इस् डन् हियर् बै टु समासास् आक्चुलि वि आर् टेलिङ्ग् दट् इवन् येङ् इस् हेविङ्ग् तपर इवन् अकार इस् हेविङ्ग् तपर दट् इस् हौ वि आर् टेलिङ्ग् सो वाट् डस् दिस् Now, yeng is after tapara, therefore yeng is called tapara. A is called tapara because after that letter there is takara. How can that both have tapara? That is what I am explaining. There are two samasas in this, the word tapara is can be split or the samasa for the word tapara can be taken in two ways or it has to be taken in two ways one is tatparaha taparaha tatparaha is panchami tatpurusha samasa అనగర్తి. తహ పర యస్మాత్ సహ తపర. తాత్పర నామ తాత్పర తాత్పర తపర. నౌ హియర్ అదేంగ్, ద వర్డ్ అదేంగ్ హియర్ వి హ్యావ్ అత్ అండ్ ఏంగ్, ఇన్ ద మిడిల్ యూ హ్యావ్ తకార. ఓకే, సో నౌ అకార ఈ సెట్ టు బి ఎ తపర వర్ణ. అకార ఈ సెట్ టు బి ఎ తపర వర్ణ ఆర్ ఇట్ ఇస్ హ్యావింగ్ త అట్ ఇట్స్ ఎండ్ బికాస్ ఇట్ ఇస్ హ్యావింగ్ త నెక్స్ట్ టు ఇట్. దట్ ఈస్ క్లియర్లీ విజిబుల్ బై పంచమి తత్పురుష. అండ్ ఈవెన్ ఏంగ్ ఈస్ హ్యావింగ్ త, ఏంగ్ ఈస్ సెట్ టు బి ఎ తపర వర్ణ బికాస్ ఇట్ ఈస్ ఆఫ్టర్ ఆఫ్టర్ ది తకార. That is because of the way in which the samasa is fit. Etasmat paraha aka idanim a yeng cheti ubhavapi taparavarnau sanjato ataha taparakarnasya prayojanam kim. Idanim తపరహ ఇత్యుక్తే సర్వే జ్ఞాతవంతః వా? కేవలం తపర, ఓన్లీ తపర. వాట్ ఇస్ తపర? అస్తు, ఇదానీం ఉభౌ అపి తపరౌ సంజాతౌ తేన కిం ప్రయోజనం, కిమర్థం ఏవం రీత్యా సమాస క్రియతే ఇతి ప్రశ్నే తత్ర తపరకరణస్య ప్రయోజనం కేవలం స్వకాలస్య గ్రహణం. ఇదానీ అర్త్ ఇతి తపరకరణం క్రియతే చేత్ అకారః హ్రస్వవర్ణః ఏవ కేవలం షడ్భేదాః, హ్రస్వస్య షడ్భేదాః ఏవ స్వీక్రియంతే. యది తపరకరణం న క్రియతే అకారస్య అష్టాదశ భేదాః స్వీక్రియంతే. ఏవం ఆత్ ఇతి క్రియతే చేత్ ఆత్ ఇత్యత్ర ఆకారః దీర్ఘః, ఏవం దీర్ఘస్య షడ్భేదాః ఏవ స్వీక్రియంతే నతు హ్రస్వస్య. ఇదానీం అత్రాపి కిం భవతి అణుదిత్ సవర్ణస్య చాప్రత్యః ఇతి సూత్రేణ అణ్ నామ అకారః సర్వాన్ వర్ణాన్ గృహ్ణాతి పరంతు అదేంగుణః ఇతి తపరకరణేన అత్ర తపరకరణేన కిం ఆగతం ఏంగిత్యస్యాపి కేవలం తత్ స్వకాలస్యైవ గ్రహణం. ఏంగిత్యస్య దీర్ఘ ఏకారః అస్తి అతః దీర్ఘ ఏకారస్య దీర్ఘ భేదానామేవ గ్రహణం. ఇదానీం అకారస్యాపి హ్రస్వభేదానామేవ గ్రహణం. తపరకరణస్య ప్రయోజనం కిం ఇతి పరీక్షాయాం అవశ్యమాగచ్చతి. తపరకరణ తపరః తత్కాలస్య, తత్కాలస్యైవ గ్రహణం సర్వత్ర భవతి. యదా తపరః క్రియతే తదా తత్కాలస్యైవ గ్రహణం భవతి. ఇదానీ పునః సూత్రం సూత్రార్థం పశ్యామః. అస్మాకం ప్రశ్నః ఏవం ఆసీత్ అత్ ఏం చ గుణసంజ్ఞః స్యాత్ ఇతి అదేంగుణసూత్రే సంజ్ఞాసూత్రే అస్మాభిః అత్ ఇత్యత్ర అర్థః కః ఇతి జిజ్ఞాసాయాం. తదా అస్మాభిః ఉక్తం అతిత్యస్య అర్థం అవజ్ఞాతుం అస్మాభిః తపరస్తత్కాలస్య ఇతి సూత్రం జ్ఞాతవ్యం. తపరస్తత్కాలస్య ఇతి సూత్రం కిం వదతి? యదా తపరః తత్కాలసంజ్ఞకో భవతి. తపరః నామ తపరః నామ వర్ణః. యః కోపి వర్ణః యస్య యః కోపి వర్ణః తపరః నామ యః కోపి వర్ణ స్వీక్రియతే. ఇదానీం తపరః నామ కః వర్ణః స్వీక్రియతే ఇత్యుక్తే ఎనీ వర్ణ విచ్ ఇస్ హావింగ్ త అట్ ఇట్స్ ఎండ్ ఆర్ విచ్ ఇస్ ఫాలోడ్ బై ద తకార. బోత్ ఆర్ టేకన్ అస్ తపర. హౌ ఇస్ దిస్ పాసిబుల్ సార్? కథం ఏతత్ సంభవతి ఇత్యుక్తే తపరః ఇతి పదస్య సమాస భేదేన తర్హి సమాస కః విగ్రహవాక్యం కిం ఇతి ప్రశ్నః ఉదేతి. తదా ఉచ్యతే తపరహ ఇత్యస్య సమాసద్వయం అస్తి. తాత్ పరహ తపరహ పంచమీ తత్పురుష సమాసః. తః పరహ యస్మాత్ అసౌ వర్ణః తపరః. అన్య పదార్థః బహువ్రీహి వర్ణస్య కృతే అస్తి. ఇదానీం ఏవం కిం ఆగతం అదేంగుణః ఇతి సూత్రే అకారః తపరవర్ణః. ఏంగపి తపరవర్ణః అస్మాభిః ఏతాదృశ వ్యాఖ్యా సమాసద్వయం కిమర్థం క్రియతే. అస్మాకం ఇష్టం అస్తి ఏంగిత్యత్రాపి స్వకాలస్యైవ ఇత్యుక్తే స్వకాలస్యైవ గ్రహణం భవేత్ ఇతి కారణేన అస్మాభిః ఏవం రీత్యా వ్యాఖ్యానం కృత్వా ఏంగపి తపరవర్ణః అకారః అపి తపరవర్ణః ఇతి ఉచ్యతే. ఏతేన కిం ప్రయోజనం ఇత్యుక్తే అణుదిత్ ఏతౌ ద్వౌ అపి తపరవర్ణౌ సంజాతౌ. ఇదానీ తపరవర్ణే సంజాతే కేవలం తానేవ యస్య కాలః సమకాలః అస్తి తాన్ వర్ణానేవ తౌ వర్ణౌ ఏవ ఏతే బోధయంతి. తాన్ వర్ణాన్ నామ షడ్భేదాః యానీ హ్రస్వస్య షడ్భేదాః స్వీక్రియంతే దీర్ఘస్య షట్ దీర్ఘభేదాః ఇవ స్వీక్రియంతే. ఏవం తపరకరణేన అకార అదేంగుణః ఏంగ్ అర్థాత్ ఏ ఓ చేతి వర్ ద్విమాత్రికౌ స్తః. ఇమౌ అపి ద్విమాత్రిక వర్ణానేవ బోధయిష్యతః నతు ప్లితాది ఇతి ఉక్తః అస్తి. ప్లుతాది వర్ణాన్ న గృహ్ణాతి. ఏవం తాత్పర్యం కిమ్ ఇత్యుక్తే అవర్ణః కేవలం స్వకీయాన్ సమకాలాన్ షడ్ హ్రస్వభేదానేవ గ్రహిష్యతః నతు సంపూర్ణ ద్వాదశ భేదాన్ వా అష్టాదశ భేదాన్ వా. ఏవం ఈ ఊరు ఆ ఇత్యాది తపరవర్ణేషు సర్వత్ర ఏవమేవ ఆగచ్చతి. ఇదానీం అదేంగుణః ఇతి సూత్రస్య అర్థః కిం భవత్. హ్రస్వ అకారః పునః అత్ర ఆగమిష్యామః. అదేంగుణః కిం వదతి ఇదానీం సంజ్ఞాం విదధాతి. కా సంజ్ఞాం విదధాతి? గుణసంజ్ఞాం విదధాతి. కే గుణసంజ్ఞకాః? ఏంగ్ ఇత్యుక్తే ఏకారః ఓకారః అకారః. అత్ నామ అకారః హ్రస్వ అకారః. హ్రస్వ అకారస్యైవ గుణ ఇతి సంజ్ఞా విద్యతే దీర్ఘాకారస్య న. ఏవం వర్ణత్రయాణాం కిం ఆగతం? గుణ ఇతి సంజ్ఞా ఆగతం. ఇదానీం అగ్రిమసూత్రం పశ్యామః. ఆద్గుణః కదాచిత్ అత్ర స్లైడ్ మధ్య లైన్స్ ఇత్యాదికం ఆగచ్చతి, పరంతు ఒరిజినల్ మధ్య న భవతి తత్. ఏతాదృశ రక్తవర్ణః న దృశ్యతే మయా. భవంతః ద్రష్టుం ప్రభవంతి వా రక్తవర్ణ అక్షరాన్ సూత్రార్థం? న కేచ నాజి ఆంజి తత్ర మయా టైప్ రక్తవర్ణ రేఖా అస్తి. రక్తవర్ణ రేఖా అస్తి పరంతు మయా రేఖా న స్థాపితాగత్ తత్ సమ్యగేవ ఉట్టంకితం ఏవం ఆగచ్చతి. అస్తు తత్ సూత్రార్థం తో పుస్తకే అపి అస్తి అతః క్లేశః నాస్తి. ఇదానీం ఆద్గుణః ఏతదేవ విధి సూత్రం అస్తి. విధి సూత్రం నామ సంధి విధాయకం సూత్రం. ఇదానీం సంధి విధాయకం సూత్రం ఆద్గుణః. ఇదానీం ఆద్గుణః ఇతి సూత్రస్య అర్థం పశ్యామః. ఆత్ గుణః ఇతి పదద్వయం విద్యతే. ఆత్ నామ ఇదానీం అత్ర తపరకరణం వా ఇతి ప్రశ్నే కృతే న అత్ర తపరకరణం నాస్తి. తర్హి ఆత్ ఇత్యస్య అర్థః కః ఇత్యుక్తే ఇదానీం రామశబ్దస్య పంచమీ విభక్తిః రామశబ్దస్య పంచమీ విభక్తేః రూపం కిం? రామాత్ అస్తు रामात 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 इति दीर्घः अस्ति तत्र रामात इदानीं मया प्रश्न क्रियते रा इति अक्षरं निष्कासयतु इदानीं महा राम इत्यत्र रा निष्कासयतु मा इत्येव प्रातिपदिकम् अस्ति अर्थः किम् इति मा कृपया मा पश्यन्तु मा इति पदमस्ति राम इत्यत्र मा इति पदमस्ति तर्हि पञ्चमविभक्तिः किं भवति मात् बहु समीचीनम् इदानीं मा इत्यस्य स्थाने मु निष्कासयतु मु निष्कासयतु अकारः एव अस्ति तस्य पञ्चमविभक्तिः किं भवति आत् इदानीम् आत् इत्युक्ते एतदेव आत् गुणः इत्यत्र आत् इत्युक्ते अकारस्य पञ्चमीविभक्तिः स्वीकरणीयः अत्र आत् गुणः भवति इति व्याख्या अत्र आत् गुणः इति सूत्रस्य अवर्णात् अचिपरे पूर्वपरयोः एकः गुणः आदेशः स्यात् उपेन्द्रः गङ्गोदकम् इति तत्र मूले विद्यते इदानीम् आत् इत्यत्र अर्थः कः मया उक्तम् आत् इत्यत्र अकारस्य पञ्चविभक्तिः अवर्णात् अचि परे अचि इति पदमत्र नास्ति कुत्र कुत्र अस्ति इत्युक्ते अस्माभिः इको एनचि इति सूत्रात् अचि इति पदम् आगच्छति एतदपि षष्ठाध्याये प्रथमे पादे अस्ति इको एनचि यचोयवायावः वान्तोयि प्रत्यये एवमेव तदनन्तरं एतत् सूत्रं विद्यते तदनन्तरं नाम तद् षष्ठाध्याये इको इणचि यचोयवायावः वान्तोयि प्रत्यये इतोपि बहूनि सूत्राणि सन्ति तदनन्तरं 84 वा 86 वा तत्र सङ्ख्या मया किं सम्यक् न स्थापितं परन्तु आद्गुणः इति 86th सूत्रं प्रायः कृपया पश्यन्तु 86 वा 85 वा प्रायः मम समीपे पुस्तकं नास्ति 87 वा अस्तु तद् 87th सूत्रं विद्यते कदाचित् पुस्तकेषु भेदः विद्यते तत्र 86 वा 87 वा भवतु तत्र चिन्ता नास्ति परन्तु आद्गुणः इको एनर्जि इत्यत्र अनुवृत्तिः रैट् हेण्ड् सैड् अचि इति अस्ति इको एनर्जि इत्यत्र तत्र अचि इति अचि इति पदं कुत्र पर्यन्तम् अनुवृत्तिः इति पश्यन्तु Achi iti, there is a number which is written next to Achi. What is that number? In Iko Enachi you should see. 125, va? Iko Enachi, 125 paryantam, Achi iti prayaha gacchati. Tadeva, va, tatra, dakshina bhage ya sankhya vidyate, attadhyayam ya sankhya vidyate, सा अनुवृत्तिसूत्रसङ्ख्या याव कुत्र पर्यन्तम् एतत् सूत्रम् अनुवर्तयति इति वदति सा सङ्ख्या एवम् अवर्णात् अचिपरे अचिपरे इति यदा आगच्छति तदा अस्माभिः का परिभाषा प्रयोक्तव्या अचि इति कस्यां कस्मिन् विभक्तौ अस्ति कस्यां विभक्तौ अस्ति सप्तमी सप्तविभक्त्या इदानीम् अस्माभिः परिभाषा का उपयोक्तव्या परिभाषा का उपयोक्तव्या परिभाषासूत्रम् सप्तमी निर्देशेन विधीयमानं कार्यं का परिभाषा सा तस्मिन् इति निर्दिष्टे पूर्वस्य अस्तु समीचीनम् तस्मिन् इति निर्दिष्टे पूर्वस्य कार्यं भवति तस्मिन् इति बहु समीचीनम् अवर्णात् अचिपरे पूर्वपरयोः पूर्वपरयोः इति पदं कथमागतम् इत्युक्ते इदानीं यण्सन्धौ यान्तावान्तादेशसन्धौ अस्माभिः किं कृतम् निमित्ते सति एकस्यैव आदेशकृतः इकारस्य स्थाने यकारः येचां स्थाने अयादि आदेशाः कृताः येचां स्थाने पूर्वपरयोः स्थाने न कृतः अत्र एकः पूर्वपरयोः इति सूत्रम् इदानीं पश्यतु अष्टाध्यायमेव पश्यतु नो चेत् न अवगम्यते एतत् एकः पूर्वपरयोः इति सूत्रं कुत्र विद्यते 84th सूत्रं विद्यते तदनन्तरमेव गुणसन्देहे नियमः तत्पूर्वं इको यणचि तत्पूर्वं यान्तावान्तादेशसन्धिः अत एव इदानीं छात्राणां कृते प्रौढशालामध्ये वयं पाठयामः किल तदा अस्माभिः वक्तुं न शक्नुवन्ति ते पृच्छन्ति किमर्थं कथं यण्सन्धौ पूर्वं केवलम् इकारस्य स्थाने यकारादेशः कथं गुणसन्धौ पूर्वपरयोः आदेशः इति ते पृच्छन्ति तदा अष्टाध्यायीं स्वीकृत्यैव वक्तव्यं नो चेत् अन्यथा शरणं नास्ति अष्टाध्यायीं विना शरणं नास्ति अस्माभिः वक्तुं वि केन् ओन्ली से इन् यण्सन्धि ओन्ली इकार गेट्स् रीप्लेस्ड् बै यकार That is what we can say. But why only left hand side get replaced? Why not both? Iti yadi te prachanti tari ashtadhyayim vina asmabhi vaktum vayam na prabhavamaha. Ashtadhyayam kim asti yekav purva parayoho iti yekaha adhikaraha. Yekav purva parayoho iti adhikarat parameva parasutrani gudasandhi sutrani vriddhi sutrani. Tarihi परन्तु एकः पूर्वपरयोः इति अधिकारः यण्सन्धौ अयादिसन्धौ न भवतः यतोहि तत्पूर्व प्रागेव अस्ति पूर्वमेव अस्ति अतः एकः पूर्वपरयोः इति आगच्छति इदानीम् अवर्णात् अतिपरे पूर्वपरयोः गुणादेशः स्यात् गुणः आदेशः स्यात् गुणः नाम किम् अस्माभिः इदानीमेव अधीतम् अदयङ्गुणः इति तर्हि अवर्णः ह्रस्व अकारः एकारः उकारः गुणवर्णाः इति इदानीमेव अधीतम् संहितायामिति महाधिकारः तु अस्त्येव यदि संहितायां सत्यामेव आदेशः भवति इदानीं किम् आगतम् संहितायामिति अधिकारः अस्ति एकः पूर्वपरयोः इति अधिकारः अस्ति एकः पूर्वपरयोः इति अधिकारेण एकः पूर्वपरयोः एकः आदेशः भवति इति सः सूचयति इदानीं पूर्वपरयोः आदेशः भवति इति ज्ञायते एवम् अचि इति इको यणचि इति सूत्रात् अचि इति पदं स्वीक्रियते अवर्णात् अचिपरे पूर्वपरयोः गुणः आदेशः स्यात् अवगतं वा सूत्रार्थः इदानीं अत्र पुनः पश्यामः आत् इति पञ्चमी अचि इति सप्तमी अचि इत्युक्ते अचिपरे गुणः इत्युक्ते प्रथमा विधेयः 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 नाम इदानीं गुणः इति अत्र गुणः इति विधीयते गुणः नाम कः इति अत्र पाणिनिना एव संज्ञा कृता अदयङ्गुणः इति गुणः नाम सः कृष्णवर्णीयः शुक्लवर्णीयः इति लौकिक भाषामध्ये गुणः इति पदस्य अर्थः व्याकरणशास्त्रे न उपयुज्यते व्याकरणशास्त्रे गुणः नाम अवर्णः ये अ ये वो इत्येव गुणवर्णाः गुणः नाम एते वर्णाः एव गुणवर्णाः न तु शुक्लकृष्णादयः इदानीम् एकपूर्वपरयोः इत्युक्ते एकादेशः भवति एवम् आदेशः द्विविधः एकादेशः केवलम् आदेशः इति यदि केवलम् आदेशः भवति तर्हि एकस्य स्थाने भवति यदि एकादेशः भवति चेत् द्वयोः स्थाने भवति एकादेशः इति प्रौढशालाजनानां कृते वक्तुं शक्यते परन्तु तत् किमर्थम् इति प्रश्ने कृते अस्माभिः अवश्यं पाणिनेः अष्टाध्यायी मध्ये एतत् सूत्रम् अवलोक्यैव ज्ञातुं शक्यते एकः गुणसन्धिः एकः पूर्वपरयोः इति अधिकारे विद्यते अतः एकः पूर्वपरयोः एतस्य उदाहरणम् एवं वक्तुं शक्नुमः। तत्र गवर्नमेंट द्वारा किं क्रियते, किमपि स्पेशल सब्सिडी दीयते, सब्सिडी नाम स्पेशल किमपि ग्रांट वा सब्सिडी वा दीयते, तद् एकस्य स्टेट कृते दीयते, एकस्य डिस्ट्रिक्ट कृते दीयते चेत् यदि तस् इन दैट डिस्ट्रिक्ट हुएवर इज देयर ये केपि तत्र अंतर्भवन्ति ते एव तस्य अधिकारिणः भवन्ति। इदानीं फ्री राइस डिस्ट्रीब्यूशन तत्र पाण्डिचेरी जनानां कृते फ्री राइस, यतो हि तत्र क्षामः वा सुनामी वा किमपि आगतः इत्युक्ते, अत्र बेंगलोर नगरीयाः तत्र फ्री राइस स्वीकर्तुं शक्नुवन्ति वा, न शक्नुवन्ति। किमर्थं न शक्नुवन्ति, ते तस्मिन् अधिकारमध्ये तस्मिन् प्रान्ते दे डिड नॉट कम अंडर दैट कम अंडर पाण्डिचेरी। एवमेव इदानीं यण् सन्धिः अयावि सन्धिः डु नॉट कम अंडर एकः पूर्वप्रयोगः, देयरफॉर यू कैनॉट डू आदेश फॉर बोथ दि वर्णस् इति अस्माभिः ज्ञातव्यं भवति। हा इदानीं संहिता एतत् सर्वं इदानीं कस्य वर्णस्य कः आदेशः इति निर्णेतव्यः। इदानीम् उदाहरणं किम्, उपेन्द्रः इति उदाहरणम्। उपेन्द्रः इति उदाहरणे किम् अस्ति, अकारः अस्ति, इकारः अस्ति, इका इदानीम् अवर्णात् अचिपरे अच्परकत्वम् अस्ति, अतः आल् द कण्डीशन्स् आर् फुल्फिल्ड्। अवर्णात् अचिपरे पूर्वपरयोः पूर्ववर्णः अकारः परवर्णः इकारः एतयोः किम् आदेश गुणः भवति इत्येव उक्तं पाणिनिना। एकारः भवति, ओकारः भवति, अकारः भवति वा इति अस्माभिः द्रष्टव्यम्। कथं निर्णय कर्तव्यः इत्युक्ते स्थानसाम्यात् स्थानं द्रष्टव्यम्। इदानीम् अकारस्य स्थानं किम्, अकूहविसर्जनीयानां कण्ठः इति कण्ठस्थानम्। इकारस्य स्थानं किम् इति येषाणां तालु इत्यनेन तालुस्थानम्। अकारस्य कण्ठस्थानम्, इकारस्य तालुस्थानम्। तर्हि इदानीं यः कोऽपि वर्णः भवेत्, इदानीम् आदेशानां पश्यामः गुणवर्णानाम्, अकारस्य कण्ठस्थानम्, एकारस्य कण्ठतालुस्थानम्, ओकारस्य कण्ठोष्ठस्थानम्, एकारस् एवं किम् आगतम्, कण्ठतालु एव अस्माभिः स्वीकर्तव्यम्। एकारः कण्ठतालुवर्णः, अतः उपेन्द्रः इति आगतम्। एवमेव गङ्गा उदकम् इत्यत्र, गङ्गोदकम् इत्यत्रापि कण्ठोष्ठवर्णः स्वीक्रियते। उकारः उपपद्मानीयानाम् ओष्ठौ, आकारः कण्ठः, कण्ठोष्ठवर्णः कण्ठोष्ठ्यवर्णः, कण्ठोष्ठ्यवर्णः ओकारः एव, अतः स्थानेऽन्तरतमः इति स्थानसाम्यात् उपेन्द्रः इत्यत्र अकारस्य स्थाने सारी अकार इकारयोः स्थाने एकारः गङ्गा प्लस् उदकम्, गङ्गा प्लस् गङ्गा उदकम् इत्यत्र आकार उकारयोः स्थाने ओकारः भवति। अत एव इदानीम् अ इ ए इत्युक्ते ए ओकारः इति आगच्छति। इदानीं ऋकारस्य स्थाने किम्, ऋकारस्य स्थाने किम् इति अग्रे पश्यामः। इदानीं किं भवति, एकम् उदाहरणं स्वीकुर्मः, कृष्ण महा प्लस् ऋषिः वा कृष्ण प्लस् वृद्धिः इति स्वीकुर्मः। कृष्ण प्लस् वृद्धिः इत्यत्र किं भवति इति स्वीकुर्मः। तदर्थमेव उपदेशे अदलनासिक इति सूत्रम् अत्र व्याख्यानं क्रियते। एतत् आरभ्यते चेत् उरण्डपरः इत्यपि अस्ति, एतद् अग्रिमकक्षायां वक्ष्यामि, यतोहि किञ्चित् विलम्बेन आरब्धम् अतः एतत् समाप्तुं न शक्यते। यदि दशनिमिषं तिष्ठन्ति चेत् अग्रे गन्तुं प्रवहामि, किञ्चित् वेगः भविष्यति, अनन्तरं पुनः वक्तव्यं भवति, अतः अग्रिमकक्षायामेव प्रारम्भतः वदामि। इदानीं किञ्चित् सम्यक् पठन्तु भवन्तः सर्वे। एतत् सन्धिनियमाः सर्वत्र उपयोगाय भवन्ति, यतोहि शब्दाधिकारे तिङन्ते सर्वत्र एते नियमाः एव पुनः पुनः आगच्छन्ति। अतः एतत् यदि सम्यक् ज्ञायते एव सूत्रः सूत्रार्थः सर्वं परिभाषासूत्रं संज्ञासूत्रम् एतत् सम्यक् ज्ञातव्यम्। तदा एव तत्र क्लेशः न भवति. नो चेत् तत्र पुनः अत्र आगन्तव्यं, पुनः पुनः सर्वितचर्वणमेव क्रियते चेत् व्याकरणे प्रथमं व्याकरणमेव सर्वेषां कृते बोर् भविष्यति. अत्र मया स्लैड् मध्ये किमपि पिक्चर् वा वीडियो वा किमपि न दर्शयिष्यते, अतः स्लैड् मध्ये केवलम् अक्षरम् अक्षरम् अक्षरं भवति. तत्र मम ध्वनिः अपि काकध्वनिः इव किञ्चित् कठोरमेव अस्ति, अतः तस्योपरि व्याकरणं, तस्योपरि लघुसिद्धान्तकौमुदी, पाणिनीयं व्याकरणं कि यदि श्रद्धा इत्यादिकं न भवति किञ्चित् क्लेशः भवति. परन्तु एवं रीत्या नास्ति सर्वं सम्यगेव. तत् भवन्तः किञ्चित् अभिमानेन वदन्ति, परन्तु किञ्चित् अस्माभिः अस्य आनन्दः अनुभूतव्यः. कथं पाणिनिः एतादृशसंरचना कृतवान् इति, एतादृशसंरचनाकारः पाणिनिः, सः किम कुत्र सूत्रं सूत्राणि कुत्र स्थापितवान्, कुत्र निर्दिष्टवान्, कथम् अर्थकृतवान्, एवं तत्र आनन्दः भवति. अतः तस्य आनन्दस्य अनुभवः इतोपि सन्धिप्रकरण अनन्तरम्, अत्सन्धिप्रकरणं, हल्सन्धिप्रकरणं, विसर्गसन्धिप्रकरणम् अनन्तरं पञ्चसन्धिप्रकरणं यदा समाप्यते तदा भवन्तः भवत्यश्च आनन्दम् अनुभवितुं शक्नुवन्ति. पाणिनि इस् रियलि ग्रेट्. एतादृशव्याकरणं अद्भुतरसः अनुभूयते. अस्तु, एतादृशव्याकरणं पाणिनिना कथं कृतम् इति भवन्तः अनुभवन्ति. कृपया पारायणं कुर्वन्तु, सूत्रार्थं मनसि स्थापयन्तु, उदाहरणं स्थापयन्तु, मूलस्य पारायणं कुर्वन्तु. यदि विषयस्य दार्ढ्यं भवति चेत् इदानीम् आरम्भे किञ्चित् मया निधानतया गम्यते, अजन्तपुल्लिङ्गप्रकरणादारभ्य किञ्चित् वेगेन गन्तुं शक्यते. यदि भवन्तः सर्वे किञ्चित् अध्ययनं कुर्वन्ति, मम पूर्वावलोकनम् अपेक्षितं. तत्र एकः उक्तिः अस्ति, शास्त्र अध्यापने अध्ययने च यदि अध्यापकः गुरुः पूर्वावलोकनं न करोति, यदि शिष्यः परावलोकनं न करोति, उभौ अपि शास्त्रस्य शत्रु इति. मया पूर्वावलोकनं कृत्वा भवतां कृते पाठनीयं, भवन्तः पाठनादनन्तरमेव परावलोकनं करणीयम्. अद्यैव गत्वा, अद्य इत्युक्ते अग्रिमकक्षा, अतः एव मया अस्माभिः ब्रेक् स्थापितं फ्रैडे वेड्नस्डे इति. तन्मध्ये किञ्चित् भवन्तः तत्र विविधकार्येषु रताः, गृहिण्यः, गृहस्थाः सन्ति इति अहं जानामि. तदुपरि एतत् कर्तव्यं, यतोहि परावलोकनेन यदि एतत् नोट्स् सर्वं पुनः पठ्यते न पठ्यते चेत् तर्हि किं भवति, मूलं नोट्स् एतत् सर्वं न पठ्यते चेत् अनन्तरं पठामि इति स्थापयन्ति चेत् तद् इदानीम् एकस्य सूत्रस्य कृते मया पञ्च वा चत्वारः स्लैड् निर्मीयन्ते. तद् एते विषयाः मया तत्र ओ एवं वक्तव्यम् एवं वक्तव्यम् इति मया टैप् किञ्चित् विचिन्त्य टैप् कृतम्. एतत् यदि इफ् इट् वास् डैरेक्ट् टीचिङ्ग्, यदि भवन्तः भवत्यश्च मम पुरतः भवन्ति चेत्, इत्युक्ते साक्षात् गुरु पुरतः भवन्ति चेत् तदा एतत् सर्वं न भवति, केवलं ग्रन्थ अध्ययनं, केवलं स्लैड् न भवति. इदानीं किञ्चित् एतत् टेक्नालजि किञ्चित् उपकारकमेव. यद्यपि अहं पुरतः नास्मि तथापि एतत् सर्वं नोट्स् लभ्यते, यतोहि ममापि एक्स्प्लेनेशन् कृते यदि भवन्तः पुरतः न सन्ति इति कारणेन भवतां मुखम् अहं न द्रष्टुं पारयामि, अतः अहं कथं वा प्रतिपादनं करणीयं, कथं वा वक्तव्यम् इति तत्र एकैकस्य अंशस्यापि तत्र स्लैड् मध्ये लिख्यते. तदेव विलम्बं जनयति, विलम्बस्य कारणं तदेव इत्युक्ते नो चेत् वयं प्रतिदिनं कक्षां कर्तुं शक्नुमः एतत् स्लैड् करणमेव दिनद्वयं भविष्यति अग्रिमकक्षायाः कृते इत्युक्ते मम तावदेव समयं लभ्यते अतः कृपया भवन्तः किञ्चित् अध्ययनं क्रियते चेत् पञ्चसन्धि अनन्तरं किञ्चित् वेगेन गन्तुं शक्यते तदा एकस्मिन् वर्षे वा वन् अण्ड् हाफ् इयर्स् मध्ये वा एतत् पुस्तकं सम्पूर्णं समापनीयम् इति ममापि आशा अस्ति भवन्तः यदि सहकुर्वन्ति चेत् अवश्यं तत् पूरयिष्यते भगवतः कृपया कृपया पठन्तु श्रद्धया पठन्तु अनन्तरं लघु सिद्धान्तकौमुदी मध्ये तु वयं वेगेन गन्तुं शक्नुमः यदि एतत् पुस्तकं शीघ्रं पठ्यते वन् इयर् मध्ये सिद्धान्तकौमुदी कृते चत्वारः फोर् इयर्स् वि रिक्वैर् अट्लीस्ट् इफ् यु डू टु क्लासस् पर् वीक् बट् इफ् यु स्टडी लघु सिद्धान्तकौमुदी वेरि करेक्ट्लि इन् अ डीटेल्ड् वे लैक् दिस् फार् सिद्धान्तकौमुदी वि केन् फिनिश् इट् इन् टु इयर्स् एवं यथामति कुर्मः येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौता गिरः पुंसां विमलैश्शब्दवारिभिः तमश्च अज्ञानजं भिन्नं तस्मै पाणिनये नमः बहु उपकृताः वयम् इति अत्र न सन्देहः धन्यवादाः अहमपि उपकृतः यतोहि तत्र अत्र सप्तति छात्राः लघुसिद्धान्तकौमुदी कृते रिजिस्टर् कृतवन्तः षोडशछात्राः कक्षार्थं षोडश वा विंशति वा प्रायः कक्षार्थम् आगमिष्यन्ति बहवः जनाः ये आगन्तुं न प्रभवन्ति ते रेकार्डिङ्ग् इत्यादिकं शृण्वन्ति अतः अस्माकमपि भाग्यं यत् सुजाता भगिनी तत्र धन्यवादः सुजाता भगिन्यै एव धन्यवादः समर्पणीयः सा एव कक्षा आवश्यकम् इति उक्त्वा पुनः पुनः मां स्मारयित्वा सा एव प्रार्थनां कृतवती सा एव अस्य शी इस् रेस्पान्सिबल् फार् आर्गनैसिङ्ग् दिस् कक्षा अण्ड् मोर् देन् हाफ् द स्टूडेण्ट्स् आर् फ्रम् चेन्नै औट् आफ् द रिजिस्ट्रेशन् 70 students, more than 30 are probably from Chennai. It is all because of Sujata Bhagini. I think she has Samskrita Bharati taha sarvan tatra ahuya sa sthapitavati kakshaya madhye. Iti kimupi prayaha Sujata Bhaginyaha ayam prabhavaha. Astu, dhanyavadaha, Ram Ram Ram, Shubharatri.